சிவன் உருதுகு ஹே ஓம் ஐயௌச ஹய வரட் லண் ஞமகணனம் ஜகை கடதஷ் கதகக்ஷ்யாயாம் அஸ்மாபிஹி அதிகார விசாரஹ அவலோகிதஹ். சூத்திராணி ஷட்விதானி சந்தி. ததா ஹி சம்ஞ்ஞா ச பரிபாஷா ச விதிர் நியம ஏவ ச அதிதேசோதிகாரஸ்ச சூத்திரம் ஷட்விதம் ஸ்மிருதம் இத்யஸ்மாபிஹி கதாசு கக்ஷ்யாசு சம்யக் அவலோகிதம். தேஷு சூத்ரேஷு அதிகார சூத்திரம் பிரதானம் இத்யபி அதிகதம். ஏவஞ்ச அதிகாரஸ்ய லட்சணம் அபி திருஷ்டம். ஸ்வஸ்தலே லட்சிய சம்ஸ்காரக போதாஜனகத்வே சதி ஸ்வோத்தரவர்த்தி விதிசாஸ்திரைக வாக்கியதாபன்னத்வம் அதிகாரத்வம் இத்யதிகதம். தத்ரஹி ஸ்வஸ்தலே யத்யபி சூத்ரஸ்ய ந கிஞ்சித் காரியம் பவதி ததாபி உத்தரத்ர சூத்ரேஷு மகத் பிராதான்யம் வஹதி இதி அனேன லக்ஷணேன வயம் அதிகச்சாம. ஏவஞ்ச தத்ர அஸ்மாபி உதாரணானி திருஷ்டானி பகவஹ விசாராஹ அதிகதாஹ கதம் சூத்ராணாம் அதிகாரத்வம் குத்ர பர்யந்தம் தேஷாம் வியாப்திஹி இத்யேதே விசாராஹ திருஷ்டாஹ. ததஹி ஆகடாரா தேகா சம்ஞ்ஞா இத்யஸ்தி பிரதமாத்யாயஸ்ய சதுர்த்த பாதே பிரதமம் சூத்ரம் ஆகடாரா தேகா சம்ஞ்ஞா இதி. ததஹ ஆரப்ய द्वितीयाध्यायस्य द्वितीय पादे अंतिम सूत्र पर्यन्तम् अर्थात् कडारा कर्मधारये इति सूत्र पर्यन्तम् अस्य सूत्रस्य व्याप्तिः अस्ति. तो हि आ कडारात् एका संज्ञा इत्युक्तम्. आ कडारात् एका संज्ञा, एक संज्ञाधिकारः. आ कडारात् एका संज्ञा. एवमेव अस्माभिः बहूनि उदाहरणानि दृष्टानि. यथा प्रत्ययः प्राकडारात् समासः परश्च धातोः ण्याप्रातिपदिकात् इत्येवं बहूनि अधिकरण अधिकारसूत्राणि अस्माभिः दृष्टानि. येषाञ्च व्याप्तिरपि दृष्टा. तत्र बहूनां सन्देहाः आसन्. तत्र केचन सन्देहाः अत्र इदानीं पर्यालोच्यन्ते. यथा कैश्चित् पृष्टम् आधुनिककाले अर्थात् कालेऽस्मिन् वयम् अष्टाध्यायीमेव पश्यामः. तत्र प्रत्ययः परश्च इत्यादीनि सूत्राणि सन्ति. आकडारादेका संज्ञा प्राक्कडारात् समासः इत्यादीनि सूत्राणि सन्ति. अत्र आकडारादेका संज्ञा प्राक्कडारात् समासः प्राग्दीव्यतोण् इत्यादिषु सूत्रेषु सूत्रस्य व्याप्तिः कियती अस्ति इति स्पष्टतया सूत्रेव उक्तम्. अतः चिन्ता नास्ति. अर्थात् आ कडारादेका संज्ञार्थात् कडारा कर्मधारये इति पर्य इति अभिव्याप्य एका संज्ञा भवति इति ज्ञायते. अस्तु, तत्र ज्ञातम्. पुनश्च प्राग् दीव्यतोण् तेन दीव्यति खनति जयति जितम् इति इत्यस्मात् प्राक् एतस्य व्याप्तिरस्ति. प्राग् दीव्यतोण् इति सूत्रस्य अधिकारः अस्ति इत्यवगम्यते. एतादृश स्थलेषु आधुनिकैः अवगम्यते। अस्तु, प्रत्ययः इत्यत्रापि आधुनिकैः व्याख्यानात् अथवा पुस्तके काचित् संख्या दत्ता भवति। यथा भवन्तः इदानीं पुस्तकं पश्यन्तु, प्रत्ययः इति सूत्रमस्ति खलु, तृतीयाध्यायस्य प्रथमपादे प्रथमं सूत्रम् अवलोकयन्तु, प्रत्ययः इति स्यात्। तत्र प्रत्यय इति सूत्रस्य पार्श्वे एव संख्या दत्ता अस्ति, 5, 4, 160 इति संख्या दत्ता स्यात्। प्रायः भावयामि सर्वे संख्यां द्रष्टुं शक्नुवन्ति। तत्र 5, 4, 160 इति या संख्या अस्ति तावत्पर्यन्तम् अस्य अधिकारः अस्ति इत्यवगम्यते। अस्तु, अस्मिन् काले पुस्तकानि सन्ति अथवा व्याख्यानानि सन्ति, अतः सूत्रस्य व्याप्तिम् अवगच्छामः। प्राचीनकाले सूत्रस्य व्याप्तिरवगम्यते स्म इति कश्चन प्रश्नः आसीत्। प्राचीनकाले पुस्तकानि नासन् खलु, एवञ्च संख्याः पुस्तकानि, अष्टाध्यायी पुस्तकं प्राचीनकाले नासीत्। तत्र अष्टाध्यायी पुस्तकमेव यदि नास्ति तर्हि तत्र पुरतः संख्यायाः उल्लेखः, व्याप्ति उल्लेखः कथं वा स्यात् इति कश्चन सन्देहः आसीत्। अस्तु, तस्य वस्तुतः अष्टाध्याय्यां यानि सूत्राणि सन्ति तानि प्राचीनकाले स्वरूपनिबद्धानि आसन्। अर्थात् यथा इदानीं वेदाः पठ्यन्ते स्वरसहिताः, तथैव प्राचीनकाले अष्टाध्याय्याः सूत्रेष्वपि स्वराः आसन्। उदात्त अनुदात्त स्वरितस्वराः ये अस्माभिः वेदेषु अवलोक्यन्ते, त एव स्वराः एतेषु, अर्थात् इदानीम् अस्माभिः अष्टाध्यायी सूत्राणि यानि दृश्यन्ते तेष्वपि ते एव विचाराः उक्ताः, ते अर्थात् स्वराः आसन्। अस्तु, स्वराः आसन् इत्यनेन किम् इति चेत्, तत्र स्वरितेन अधिकारः इति किञ्चित् सूत्रमस्ति। स्वरितेन अधिकारः इति सूत्रेण अनेन उच्यते, यत्र सूत्रे स्वरितस्वरः दृश्यते तत् तेन तत् सूत्रम् अधिक्रियते उत्तरत्र सूत्रेषु, तस्य सूत्रस्य अधिकारत्वमस्ति उत्तरत्र सूत्रेषु। यावत्पर्यन्तं स्वरितस्वरेण उच्चारणं भवति तावत्पर्यन्तं तस्य सूत्रस्य अधिकारः अस्ति इत्युच्यते। स्वरितस्वरस्य उच्चारणं यदा स्थगयामः तत्र अधिकारः समाप्यते इत्येवं कश्चन नियमः अस्ति। अस्तु, नियमस्तु एवमस्ति, परन्तु तथापि तत्र कश्चन सन्देहः पुनः जायते एव। किम् अधिकारसूत्राणि अन्यैः सूत्रैः सह एव पठ्यते स्म वा? यथा प्रत्ययः इत्युक्त्वा पुनः अग्रिमसूत्रे प्रत्ययः परश्च, पुनः अग्रिमसूत्रे प्रत्ययः परश्च आद्युदात्तश्च इत्येवं पठ्यते स्म वा इति सन्देहः जायते। अधिकारस्य व्याप्ति अवगमनार्थं भाष्यादिग्रन्थानाम् अवलोकनं कर्तव्यम्। भाष्यकाराः विशिष्टदृष्टियुक्ताः आसन्। तत्र कथम् एतेषाम् अधिकाराणाम् अनुवृत्तिः ज्ञेया इति चेत्, भाष्यकाराणां व्याख्यानादिकं तत्र शरणम्। किं भाष्यकाराः पाणिनेः सहकालीनाः आसन् वा, येन च ते अवगतवन्तः एतावत्पर्यन्तमस्ति अधिकारः इति चेत् तदपि न, तत्रापि किञ्चित् कारणविशेषः अस्ति। शब्दानां ज्ञानं, शास्त्राणां ज्ञानं शब्दानां स्वरूपं कीदृशं स्यात् इत्यादि ज्ञानं भाष्यकाराणाम् आसीत्, महाभाष्यकाराणां पतञ्जलि महर्षिणाम् आसीत्। एवञ्च शब्दस्य व्युत्पत्तिः कथं स्यात्, किम् अयम् अधिकारः कुत्र पर्यन्तम् आयाति चेत् शब्दः सिद्ध्यति इत्यादि विचारान् ते सम्यक् आलोडितवन्तः। तथा करणानन्तरम् अयम् निर्धारः स्वीकृतः यत् अस्य सूत्रस्य अधिकारः एतावत्पर्यन्तम् यदि न भवति शब्दाः न सिद्ध्यन्ते। एवञ्च तावान् यत्नः कृतः येन च अस्माभिः इदानीं सरलतया ज्ञायते अधिकारस्य व्याप्तिः कियती इति। यथा अस्माभिः पाकसमये दृश्यते, पाके यदि माता दशजनानां लवणं माता वा यः कोऽपि दशजनानां कियल्लवणं स्थापनीयम् इति चिन्तनं यदि न कुर्यात् तच्च अस्मभ्यं न बोधयेत् कथं वा वयं चिन्तयामः कियत् स्थापनीयम्। पुनः अस्माभिः तावदेव परिशीलनं कर्तव्यमेव, स्थापयित्वा पुनः पृष्ट्वा इत्यादिकम् एव। पुनश्च पुनरपि एकः प्रश्नः आसीत्, आकडारादेका संज्ञा इति या संज्ञा अस्ति, एवं प्राक्कडारात् समासः इत्यपरः अपि अस्ति, तत्र आकडारादिति कथनात् कडाराः कर्मधारे इति पर्यन्तम् तस्य व्याप्तिः अस्ति इति अवगम्यते। एवं प्राक्कडारात् समासः इत्यनेन अपि स एव अर्थः गम्यते। एवं सति अत्र आकडारादिति उच्यते, तत्र प्राक्कडारादिति उच्यते, को अनयोः भेदः? यदि अत्रापि आकडारादित्येव उच्यते तर्हि अर्धमात्रा लाघवं स्यात् इति कैश्चित् प्रश्नः कृतः। अस्य समाधानमस्ति, आकडारादिति वक्तव्ये यद्यपि आकडारादिति वक्तव्यमासीत् तथापि प्राक्कडारादिति कथनेन अत्र प्राक्कडारात् समासः इत्यत्र कश्चन अर्थः अवगन्तव्यः। प्राक्कडारात् समासः इत्यनेन समाससंज्ञा उच्यते। अग्रे ये ये विचाराः उच्यते सर्वेपि समाससंज्ञकाः भवन्ति इति संज्ञा उच्यते। एवञ्च इयं या संज्ञा अस्ति सा संज्ञा समाससंज्ञा इति अवगम्यते। आकडारादेका संज्ञा इति उच्यते खलु, तेन तर्हि अग्रे सर्वत्र एका एव संज्ञा भवेत्। एवञ्च एका एव संज्ञा भवति इति कृत्वा एका एव संज्ञा भवेत् इति नियमः खलु, तर्हि अव्ययीभावः तत्पुरुषः इत्यादि संज्ञाः न भवेयुः खलु। अतः तादृशसंज्ञानां समावेशार्थं विशेषतया प्राक् इति नूतनं पदमुक्तम्। नूतनपदकथनेन किञ्चित् विशिष्टं कार्यं किञ्चित् स्यात् इति अवगम्यते। एवञ्च समासेन सहितम् अव्ययीभाव तत्पुरुष इत्यादि संज्ञानां समावेशः भवति इत्येतदर्थं प्राक्करारात् इति विशेषतया उक्तम्। अस्तु, एतावन्तः विचाराः प्रश्नरूपेण आगताः आसन्। अन्येपि केचन विचाराः सन्ति, अग्रिमासु कक्षासु कदाचित् वक्ष्यामि। इदानीम् एषा कक्षा अग्रे कार्यते। इदानीम् अधिकारः इति यदुक्तं, मया गतसप्ताहे कक्षायां कश्चन विचारः उक्तः आसीत्, अधिकारस्य वृक्षवत् स्वरूपं भवति इति। किञ्चित् मूलं भवति, तस्य शाखाः भवन्ति इत्युक्तम्। तत्र प्रधानशाखा इयमस्ति, पश्यन्तु, किञ्चित् विशिष्टं प्रत्ययः इति सूत्रविषये किञ्चित् पर्यालोचनीयम् इति मया चिन्तितम् आदौ। अतः तमेव विचारमधिकृत्य किञ्चित् पश्यामः कथं वृक्षत्वं प्राप्नोति इति। प्रत्ययः इत्यस्ति, एवं वृक्षः भवति, पश्यन्तु। ततः पूर्वम् एकः विचारः अवगन्तव्यः अस्ति। प्रत्ययः नाम कः इति। प्रत्ययः नाम प्रतीयते विधीयते इति प्रत्ययः। प्रतीयते विधीयते इति प्रत्ययः। एवञ्च प्रत्ययः इत्युक्ते सफिक्स् इति आङ्ग्लभाषायाम् उच्यते तत्। एकस्मात् किञ्चित् अर्थात् प्रकृतिः इति काचित् भवति, प्रातिपदिकं वा धातुः वा इति प्रकृतिः भवति, तत्र किञ्चित् योज्यते, तेन कश्चन किञ्चित् पदं भवति, किञ्चित् पदं निर्मीयते, यस्य प्रयोगं वयं कुर्मः, यथा रामः, यथा गच्छति इत्यादि प्रयोगं यत् कुर्मः, तत्र राम इति शब्दे सु इति प्रत्ययः योज्यते, येन रामः इति रूपं भवति। तथैव गम् इति धातु पठ इति धातोः ति इति प्रत्ययः योज्यते चेत् पठति इति भवति। इत्यं तत्र सु इति प्रत्ययः, अत्र ति इति प्रत्ययः, एते प्रत्ययाः भवन्ति, प्रत्ययस्य स्वरूपम् एतत्। ते च प्रत्ययाः द्विधा विधीयन्ते, द्विधा एव विधीयन्ते, नास्ति तत्र सन्देहः। केचन प्रत्ययाः धातुभ्यः विधीयन्ते, धातवः नाम पठ, गम्, लिख, भू, एध इत्यादयः ये सन्ति, ते सर्वे धातु इति शब्देन व्यवह्रियन्ते। धातुभ्यः केचन प्रत्ययाः विधीयन्ते, केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते। प्रातिपदिकं नाम राम, कृष्ण, हरि, अम्बा, पितृ, मातृ, धातृ इत्यादयः ये शब्दास्सन्ति, ते सर्वेपि प्रातिपदिकशब्देन व्यवह्रियन्ते। एवञ्च प्रत्ययाः द्विधा भवन्ति, धातुभ्यः प्रातिपदिकेभ्यः इत्येव। धातुभ्यः विधीयमानाः प्रत्ययाः तिङ् प्रत्ययाः, तत् के इति भवन्तः कालान्तरे ज्ञास्यन्ति, मया तु केवलं परिचयार्थं किञ्चित् प्रदत्तमत्र। तिङ् प्रत्ययाः, कृत् प्रत्ययाः, सनादिप्रत्ययाः इति सन्ति, ते सर्वेपि प्रत्ययाः धातुभ्यः विधीयन्ते। प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः एते सुप्रत्ययाः, स्त्रीप्रत्ययाः, तद्धितप्रत्ययाः इत्येव। एवञ्च इत्येवं सामान्यः प्रत्ययविचारः उक्तः। अत्र पश्यन्तु, प्रत्ययः इत्ययं महान् अधिकारः इति मया गतकक्ष्यायां विवृतमासीत्। प्रत्ययस्य अधिकारस्य व्याप्तिः यावती अस्ति, तावती व्याप्तिः अत्र अष्टाध्याय्यां कस्याप्यन्यस्य अधिकारस्य नास्ति। अतः मया अयं विचारः अत्र प्रदर्शितः। अत्र पश्यन्तु, प्रत्ययः इत्ययं यः महान् अधिकारः अस्ति, स च अधिकारः तस्य अधिकारस्य किमुच्यते, तस्य अधिकारस्य अधीने अधिकारद्वयमस्ति। अतः इदानीं प्रेसिडेण्ट् इत्यस्य प्रेसिडेण्ट् इति कश्चित् भवति देशस्य प्रमुखः, तदधः द्वौ कार्यं कुरुतः, तदतः अन्ये कार्यं कुर्वन्ति इत्येवं क्रमेण अत्र मया अधिकारविषये दर्शितं। पश्यन्तु, प्रत्ययः इत्यस्ति, प्रत्ययाधिकारे अधिकारद्वयमस्ति, धात्वधिकारः, प्रातिपदिकाधिकारः इति। धात्वधिकारान्तर्गतसूत्रद्वयम्, धातोरेकाचो हलादेः क्रियास्मभिहारे यङ् अन्यत् सूत्रमस्ति धातोः इति। पुनश्च धातोः इत्यधिकारे अन्यानि सूत्राणि सन्ति, तत् पश्यन्तु कथमिति। धातोः इत्यधिकारे वर्तमाने लट् इत्येकं सूत्रम्, तथैव भावे इत्यपरं सूत्रम्, एवमेव लस्य इत्यन्यत् अन्यत् सूत्रम्, तथैव भविष्यति गम्यादयः इत्यपरं सूत्रम् इत्येवं। धातोः प्रत्ययः इत्यधिकारे धात्वधिकारः अन्तर्भूतः, तदधिकारे पुनः अन्यान् सूत्र धातोरेकाचो हलादेः क्रियाः समभिहारेयम् धातोः इति सूत्रद्वयम् धात्वधिकारार्थम् तत्र पश्यन् तत्र पुनः धातोः इत्यधिकारे अन्ये अधिकारास्सन्ति बहवः अधिकारास्सन्ति मया केवलम् चत्वारः अधिकाराः उदाहरणार्थम् अत्र प्रदर्शिताः वर्तमाने लट् भावे लस्य भविष्यति गम्यादयः एतेऽपि अधिकाराः एव वर्तमाने लट् इत्यनेन वर्तमानाधिकारः उच्यते भावे इत्यनेन भावाधिकारः लस्य इत्यनेन लाधिकारः भविष्यति गम्यादयः इत्यनेन भविष्यदधिकारः उच्यते एवञ्च एतैः सूत्रैः अपि अधिकारः एव उच्यन्ते परन्तु एते धातोः इत्यधिकारे अन्तर्गताः एवमेव प्रातिपदिकाधिकारं पश्यामः प्रातिपदिकाधिकारे ज्ञात् प्रातिपदिकात् इति प्रधानः अधिकारः पश्यन्तु अत्र अस्मिन् चित्रे पश्यन्तु ज्ञात् प्रातिपदिकात् इत्यधिकारे स्त्रियामित्येकः अधिकारः अस्ति अपरस्य अधिकारः तद्धिताः इत्यस्ति प्रधानाधिकारः मया स्वीकृतः तस्मिन् अधिकारे पुनः स्त्रियामित्यधिकारे अनुपसर्जनात् इत्येकः अधिकारः अस्ति एवञ्च इदम् किमवगतम् प्रत्ययाधिकारे ज्ञाप्रातिपदिकादित्यधिकारः तस्मिन् अधिकारे पुनः अधिकारद्वयम् स्त्रियाम् तद्धिताः इति पुनः अत्र स्त्रियामित्यधिकारे पुनः अनुपसर्जनात् इत्यधिकारः एवमेव प्रत्ययः इत्यधिकारे अधिकारद्वयम् धातोः धात्वधिकार प्रातिपदिकाधिकार धातोः ज्ञाप्रातिपदिकादिति ज्ञाप्रातिपदिकादित्यधिकारे पुनः अधिकारद्वयम् स्त्रियाम् एवम् तद्धिताः इति तत्र तद्धिताः इत्यधिकारे पुनः अन्ये अधिकारास्सन्ति यथा प्राग्दीव्यतोण् प्राग्वहतेष्ठक् प्राग्धिताद्यत् प्राक्रीताच्छः इत्येवम् अधिकारविचाराः सन्ति अत्र पश्यन्तु अत्र इदानीं वृक्षः मया प्रदर्शितः प्रायेण अधिकारस्य स्वरूपम् किम् इति भवन्तः स्पष्टम् अवगतवन्तः इत्यहम् भावयामि अत्र पुरतः अहम् 17 जनान् मम कक्ष्यायाम् अवलोकयन् अस्मि अन्येऽपि ये आगच्छन्ति तेभ्यापि एकं गृहकार्यम् इति दातुम् इच्छामि गृहकार्यम् सर्वेऽपि स्वस्वमत्यनुसारम् यथा मया गतकक्ष्यायाम् अधिकाराणां व्याप्तिः मया दर्शिता भवन्तः सर्वेऽपि प्रायः तत् डौन्लोड् कृतवन्तः इति भावयामि तदेव स्वीकृत्य तत् चार्ट् स्वीकृत्य यद् मया चार्ट् गतसप्ताहे प्रदत्तम् तत् चार्ट् स्वीकृत्य एकैकः सर्वोऽपि अत्र विद्यमानः सर्वेऽपि एकैकम् सूत्रम् स्वीकृत्य अर्थात् एकैकम् वृक्षम् निर्माय गृहकार्यरूपेण निर्माय मह्यम् मेल् कुर्वन्तु इति सूचयितुम् इच्छामि भवन्तः कियद् अवगतवन्तः इति ज्ञानार्थम् अयम् विचारः सर्वेऽपि अत्र उपस्थिताः ये उपस्थिताः 17 जनाः दृश्यन्ते सर्वेऽपि अत्र उपस्थिताः अनुपस्थिताः वापि एतादृशवृक्षम् एकैकम् निर्माय मह्यम् मेल् कुर्युः इति निवेदनम् येन भवताम् अधिकारविषये कियान् अधिकारः प्राप्तः इति अवगन्तुम् शक्यते यदि भवद्भिः अधिकारविषये अधिकारः प्राप्तः इति अहम् यदि दृढः भवामि तर्हि अहम् अग्रिमासु कक्षासु अग्रिमविचारान् प्रतिपादयिष्यामि अन्यथा मया कदाचित् अयमेव विचारः पुनः वक्तव्यः स्यात् अतः अवश्यम् भवन्तः अग्रिमकक्ष्यायाः प्राक् अग्रिमकक्ष्या भविष्यति प्रायः 13 दिनाङ्के ततः प्राक् सर्वैः कश्चन वृक्षः निर्माय प्रेषणीयः एकैकः वृक्षः पर्याप्तः एवम् अधिकारवृक्षः इति यः वृक्षः अस्ति मया यः वृक्षः अत्र प्रदर्शितः पश्यन्तु यथा प्रत्ययः इति प्रधानं सूत्रं तदन्तर्गत सूत्रद्वयं तदन्तर्गत अन्यानि सूत्राणि इत्येवं यत् प्रदर्शितं तादृशमेव किञ्चित् भवद्भिः निर्माय प्रेषणीयम् इति निवेद्यते। अवश्यम् अग्रिमे सप्ताहे अयं विचारः भवतां पक्षतः अहं प्राप्तुमिच्छामि। तत्र यदि दोषास्सन्ति तदहं परिशील्य भवतां कृते मेल् द्वारा एव अथवा अत्र कक्ष्यायां वा तस्य विश्लेषणं कृत्वा भवतां कृते वक्ष्यामि। अतः अवश्यं तत् कार्यं साधयन्तु इत्युक्त्वा कक्ष्येयम् अत्र परिसमाप्यते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन भूतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। यदि प्रश्नास्सन्ति चेत् प्रष्टुं शक्नुवन्ति। प्रश्नानां सम्पूर्णः अवकाशः अस्ति इदानीम्। प्रश्नाः न सन्ति वा?